इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्याम् 28वें कॉन्फ्रेंस ऑफ स्पीकर्स एंड प्रिजाइडिंग ऑफिसर्स ऑफ द कॉमनवेल्थ इत्येतस्य सम्मेलनस्य उद्घाटनं कुर्यात्। लोकसभाध्यक्षः ओम बिरला इत्येषः अस्य सम्मेलनस्य अध्यक्षतां कुर्यात्। द्विचत्वारिंशत् देशानाम् आहत्य एकषष्टि संख्याकाः वक्तारः पीठासेनाधिकारिणः च अस्मिन् सम्मेलने भागं ग्रहीष्यन्ति। सशक्त लोकतांत्रिक संस्थानां रक्षणार्थं अध्यक्षाणां पीठासीनाधिकारिणां च भूमिकां समेत्य समकालीन संसदीय विषयाणां एकस्मिन् विस्तृत श्रृंखलायां विस्तारेण चर्चा भविष्यति। तत्रैव संसदीय कार्ये आर्टिफिशियल इंटेलिजेंस इत्येतस्य उपयोगः, सांसदानाम् उपरि सामाजिक संचार पटलानां प्रभावः, संसदः विषये सामान्य जनानाम् अवबोधं वर्धयितुं नूतन कार्यनीतिः इत्येतेषु विषयेषु चर्चा भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी बलं प्रदत्तवान् यत् पोंगल सदृशः सस्योत्पादनोत्सवः एक भारत श्रेष्ठ भारत इत्येतस्य भावनां सुदृढं करोति। श्रीमोदी ह्यः नवदिल्ल्यां केन्द्रीय सूचना प्रसारण राज्यमन्त्री डॉ एल मुरुगन इत्येतस्य आवासे आयोजिते पोंगल पर्वणः समारोहे वक्तव्यमिदं प्रदत्तवान्। प्रधानमन्त्री अकथयत् यत् पोंगल पर्व तमिल संस्कृतेः प्रकृत्या सह च तस्य बन्धनस्य उत्सवः अस्ति। असौ कथितवान् यत् इदं पर्व प्रकृत्या परिवारेण समाजेन च सह संतुलन स्थापनस्य मार्गं प्रशस्तीकरोति।
हमारी तमिल संस्कृति पूरे भारत की साझी विरासत है। इतना ही नहीं, पूरी मानवता की ये साझी विरासत है। मैं एक भारत श्रेष्ठ भारत की जिस भावना की बात करता हूं, उसे पोंगल जैसे पर्व और सशक्त बनाते हैं। साथियों, दुनिया की लगभग सभी सभ्यताओं में फसलों से जुड़ा कोई न कोई उत्सव मनाया जाता है। तमिल संस्कृति में किसान को जीवन का आधार माना गया है।
संपूर्णे विश्वे तमिल भाषिणां जनैः पोंगल इति सस्योत्सवः आचर्यते। तमिल पंचांगे वसन्तस्य आरम्भः अपि एषः एव अस्ति। थाई मासः तमिल समाजे जीवनस्य सर्वेषु क्षेत्रेषु नवारम्भः आनयति। विवाहार्थं नवोद्यमार्थं च एतत् पर्व शुभं मन्यते। अस्मिन् दिवसे सस्योत्पादनानन्तरं फलानि सूर्याय समर्प्यन्ते, येन कृषिकार्ये साहाय्यं भवति। राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्यारभ्य पंजाब राजस्थानयोः द्विदिवसीय यात्रायां भवेत्। असौ अद्य अमृतसरे गुरुनानक देव विश्वविद्यालयस्य 50 वार्षिके दीक्षांत समारोहे सम्मिलिता भवेत्। श्वः राष्ट्रपतिः जालंधर नगरे डॉ बी आर अम्बेडकर राष्ट्रिय प्रौद्योगिकी संस्थानस्य 21वें दीक्षांत समारोहे भागं ग्रहीष्यति। तस्मिन्नेव दिने एषा जयपुरे रामानन्द मिशन इत्येतेन आयोजिते 8,000 कुण्डीय हनुमान महायज्ञे अपि सम्मिलिता भविष्यति। भारतदेशेन स्वनागरिकाः संसूचिताः यत् ते ईरान देशात् वाणिज्यिक विमानैः अथ उपलब्धानाम् अन्येषां परिवहन साधनानां च उपयोगं कृत्वा ईरान देशं परित्यज्येयुः। तेहरान स्थितेन भारतीय दूतावासेन जनानां साहाय्यार्थं दूरभाष संख्या अपि प्रकाशिता अस्ति। राजनाथ सिंहः अवदत् यत् पूर्व सैनिकाः राष्ट्रिय चैतन्यस्य जीवन्त स्तम्भः, सामूहिक साहसस्य च प्रतीकाः, आगामि वंशानुक्रमस्य च कृते प्रेरणा स्रोतो भूताः सन्ति। सशस्त्रबल पूर्व सैनिक दिवसावसरे नवदेहल्याम् असौ अवदत् यत् पूर्व सैनिकाः राष्ट्रनिर्माणस्य च प्रत्येकम् अवसरे योगदानं यच्छन्ति इति। वार्ताः।